प्रार्थनायारम् कुर्मः। सरस्वती नमस्तुभ्यं वरदे कामरूपिणि, विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा। पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम्। संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्, संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरम्। संस्कृतस्य कृते जीवन् कृते यजन् आत्मानमाहुतं मन्ये, वन्दे संस्कृतमातरम्, वन्दे संस्कृतमातरम्। नमो नमः। अद्य वयं सप्तत्रिंशत्तमं श्लोकं पठामः। सप्तत्रिंशत् नवत्रिंशत् पर्यन्तं पूर्वं ये प्रश्नाः प्रेषिताः तेषां उत्तराणि लिख्यमानानि सन्ति इति मन्ये, अतः यदा सर्वेभ्यः प्राप्यते ततः परं तद्विषये चर्चां कुर्मः। अद्य वयं प्रकृतश्लोकान् पठामः। वयं गतवर्गेषु दृष्टवन्तः यत् दिलीपः सचिवेषु राज्यभारं निक्षिप्य गुरोः आश्रमं प्रति सपत्नीकः प्रस्थितः सुदक्षिणया सह। तदा यदा सः प्रस्थितः तदा मार्गः कीदृशः, वातावरणं कथमासीत्, तयोः प्रयाणं वनमार्गेण आश्रमं प्रति कथमासीत्, रम्यं मनोहरं च आसीत् इति वर्णनं कविना क्रियते कैश्चित् श्लोकैः। सम्प्रति रथस्य गमनं वयं दृष्टवन्तः, मेघनिर्हादः इव शब्दं कुर्वन् सः रथः प्रयाति स्म इति। इदानीं राजा च तस्य पत्नी सुदक्षिणा च कथं कति जनैः सह गच्छन्ति इति, राजा चेत् परिवारः बृहत् भवति किल, तं परितः अनुचराः, सेवकाः, सैनिकाः, रक्षकाः, भटाः एवं जनाः गच्छन्ति सचिवाः इति। किन्तु अत्र तु सः आश्रमं प्रति गच्छति इति, अतः सः अधिक रक्षकान् वा सैनिकान् वा न नयति स्वेन सह। कैश्चित् कतिपयैः रक्षकैः आवृतः, परिचरैः आवृतः, कदाचित् द्वित्राः अथवा चतुर्पञ्चाः एव जनाः तेन सह गच्छन्ति सेवकाः। किमर्थं तथा, नृपोचित परिवारः तु बृहद् भवति, बहुभिः जनैः परिवेष्टितः सन् नृपः याति, किन्तु आश्रमं प्रति गच्छामः, आश्रमस्य पीडा मा भवतु, बाधा मा भवतु इति धिया सः एवं केवलम् अल्पसङ्ख्याकैः जनैः सह गच्छति इति अत्र। किन्तु यद्यपि द्विचतुराः एव गच्छन्ति तेन सह, तथापि तस्य राज्ञः तेजः, राज्ञः प्रभावः तादृशः यत् बृहता सैन्येन सह सः गच्छन्नस्ति इति प्रतिभाति। तथा तस्य तेजः, तथा तस्य पराक्रमः, प्रभावः च इति अत्र वर्णनं मया श्लोकस्य सारांशः उक्तः, येन पदच्छेदान्वयक्रमकरणसमये एव अस्माभिः अवगन्तुं शक्यते, तदर्थमेव आदौ एव तस्य अर्थः उक्तः अस्ति। इदानीं वयं श्लोकं पठामः। सप्तत्रिंशत्तमश्लोकः मा भूताश्रमपीडेति परिमेयपुरःसरौ अनुभावविशेषात्तु
अनुभावविशेषात्तु
सेना परिवृता विव अस्य पदच्छेदः एवमस्ति. श्लोकं मात्रं पश्यन्तः कुर्मः. यद्यपि अत्र सर्वं सर्वः अपि दत्तः अस्ति पदच्छेदः, तथापि मा भूत् आश्रमपीडा इति परिमेयपुरःसरौ अनुभावविशेषात् तु सेनापरिवृतौ इव. पूर्व आश्रमं प्रति जग्मतुः इति पूर्वतनश्लोकात् अध्याहरणीया एतत् अस्ति. अध्याहरणीयं भवति क्रियापदं तौ जग्मतुः. तौ दम्पती जग्मतुः, तौ दम्पती जग्मतुः इति अध्याहारः, तदेव अत्र क्रियापदं. श्लोके नास्ति किन्तु वयं पूर्वतनश्लोकात् एतत् स्वीकुर्मः. अस्तु, तौ दम्पती किं भूतौ जग्मतुः, कीदृशौ? परिमेयपुरःसरौ. पुरःसराः इत्युक्ते पुरतः गच्छन्ति अथवा अनुचराः, परिचराः, सेवकाः इति बहवो अर्थाः. अत्र सेवकाः इत्यर्थः, अनुचराः, परितः चरन्ति परिचराः. सेवकाः अग्रे गच्छन्ति किमर्थम् इत्युक्ते रक्षानिमित्तं, मार्गसुखकल्पना कल्पनार्थं गच्छन्ति, मार्गसुखं कल्पयितुम्, एवं श्रमनिवारणाय अथवा आपद्तः रक्षणार्थं राज्ञः, एवं बहुभिः कारणैः अग्रे अपि सरन्ति ते. तथा परिचराः परिचरैः सह जग्मतुः. परिमेयपुरःसरौ तौ इत्युक्ते अङ्गुलीगणनीयाः एव परिचराः ताभ्यां दम्पतीभ्यां सह गच्छन्ति. अधिकाः सैनिकाः अथवा सैन्यबलेन सह राजा न गच्छति इति तात्पर्यमत्र. तौ परिमेयपुरःसरौ जग्मतुः. कस्मात् हेतोः, केन कारणेन परिमेयपुरःसरौ एव? नृपोचित गमनं तु सैन्येन सह एव भवति किल इति चेत् आश्रमपीडा मा भूत् इति हेतोः, आश्रमपीडा मा भूत् इति हेतोः परिमेयपुरःसरौ तौ दम्पती जग्मतु. परिमेयपुरःसरौ अपि किं भूतौ इव जग्मतुः. यद्यपि बहवः न सन्ति, तथापि सेनापरिवृतौ इव, सेनया आवृतौ इव, सेनया व्याप्तौ इव, बृहत् सैन्यबलं तेन सह गच्छति इव दृश्यते. कस्मात् हेतोः एवं दृश्यते, एवं प्रतीयते इति चेत् अनुभावविशेषात्. अनुभावः नाम तेजः, पराक्रमः, प्रतापः इति अर्थः. प्रतापः इत्यर्थः. अनुभवः इति चेत् जीवने अनुभवः, अनुभूतं यत् इन्द्रियैः, मनसा, बुद्ध्या, तद् अनुभवः. अत्र अनुभावः इति चेत् प्रतापः, तेजः. तेजोविशेषात् तस्य प्रतापविशेषात् तस्य प्रतापात् एवं सेनापरिवृतौ इव. सः एकः एव पर्याप्तः इति वदन्ति किल. भीमः समग्रकौरवेभ्यः अलम् इति चतुर्थी प्रयोगः भवति, अलम्. एवं चेत् एवं दिलीपराजा एकः एव सैन्यबलस्य सदृशः, बलशाली, प्रतापी च. अतः सेनापरिवृतौ इव सः दृश्यते इति तत्र भावः. किं भूतौ इव जग्मतुः, अनुभाववशात् विशेषात् सेनापरिवृतौ इव जग्मतुः तौ दम्पती इति अन्वयक्रमः. अन्वयः एवं भवति, आश्रमपीडा मा भूत् इति परिमेयपुरःसरौ अनुभावविशेषात् तु सेनापरिवृतौ इव तौ दम्पती जग्मतुः इति अन्वयः। इदानीं वयं प्रतिपदार्थं द्रक्ष्यामः। आश्रमपीडा, पीडा नाम बाधा, क्लेशः, कष्टम्। आश्रमस्य वसिष्ठाश्रमस्य बाधा, क्लेशः, कष्टम्। मा भूत्, न स्यात्, न भवेत्। मा भूत् इत्यस्य पदस्य व्याकरणविशेषं वयं ते द्रक्ष्यामः। मा भवतु, परिमेयपुरःसरौ, परिमितैः परिचरैः सहितौ, तौ दम्पती परिमेयाः। परिमेयाः इत्युक्ते परिमितं, परिमितसङ्ख्याकाः। परिमेयाः पुरःसराः नाम रक्षकाः अथवा परिचराः, अनुचराः। परिमेयाः अनुचराः याभ्यां, दम्पतीभ्याम् अनुचराः अङ्गुलीगणनीयाः एव आसन् इति अर्थः अत्र। परिमितैः परिचरैः सह तौ गच्छतः। अनुभावविशेषात् तु इति अत्र किन्तु इति भावः। कदाचित् तु इति बलार्थम्, आघातार्थं भवति, बलाघातः भवति। तु निश्चयेन इत्यर्थे अपि भवति। अत्र किन्तु अनुभावविशेषात्, तेजोविशेषात्, प्रतापविशेषात्, सेनापरिवृतौ इव, परितः सेनया व्याप्तौ तौ दम्पती, राजदम्पती इव तौ जग्मतुः, तौ प्रेयुः, गच्छतः इति अर्थः। अत्र भावः अस्ति, मुनीनाम् आश्रमाः कुत्र भवन्ति? जनस्थानात् दूरे क्वचित् वने अथवा एकान्तस्थले, उपवनसमीपे अथवा नदीतीरे भवति। मुनीनाम् आश्रमाः एतादृशस्थानेषु किमर्थं भवन्ति इत्युक्ते तपश्चर्यायाः वातावरणं कल्पयितुं, तत्र एव विविक्तस्थाने, निर्जनस्थाने भवति। नृपोचितसैन्यदलेन सह गम्यते चेत्, सामान्यतया राजा एवमेव गच्छति किल सैन्यदलेन सह, सैन्यबलेन सह, एवं चेत् आश्रमवासिनां बाधा स्यात् भवेत् इति धिया सुदक्षिणादिलीपौ अल्पसङ्ख्याकैः अनुचरैः सेव्यमानौ, तैः परिचर्यमाणौ आश्रमं प्रति प्रस्थितौ, तयोः तेजसः प्रतापस्य च प्रभावात् तौ सैन्येन आवेष्टितौ इव दृश्येते। वास्तविकं, वास्तविकतया तथा नास्ति। वास्तविकतया तु कैश्चित् सैनिकैः सह एव गच्छतः, किन्तु सैन्येन व्याप्तौ इव तौ दृश्येते इति तात्पर्यम्। अत्र आरम्भे उक्तं मा भूत् इति पदस्य विवरणं किम् इति। वस्तुतः एतद् क्रियापदं, मा भूत्, मा अभूत् इति, न भवतु। अभूत् इति सामान्यतया लुङ्लकारः भवति। लुङ्लकारः नाम अद्यतनभूतकालः, अद्यतनभूतकालः। भूधातोः रूपं कथं भवति? अभूत्, अभूताम्, अभूवन् इति भवति। किन्तु अत्र मा न स्यात् अथवा मा भवतु इति लोटर्थे वा आशीदर्थे वा कथं भवति इत्युक्ते, यदा मानी लुम् इति पाणिनिमहर्षेः सूत्रं भवति, तेन सूत्रेण किं भवति इत्युक्ते लुम् मा योगे आशीनर्थे भवति। सामान्यतया मा विना, मा इति निपातपदं यदस्ति तद्विना केवलम् अभूत् इत्युक्ते अद्य मम रात्रिभोजनम् अभूत्, अद्य सायङ्काले सुन्दर सङ्गीतकार्यक्रमः अभूत्, अद्यतनभूतकालार्थे भवति। किन्तु मा योगे माङ्गीलुम् इति सूत्रेण किं भवति इत्युक्ते मा योगे अभूत् इति पदम् आशिरर्थे भवति न तु भूतकालार्थे इति सूत्रं सूत्रार्थः तर्हि मा अभूत् इत्येव स्यात् ननु मा भूत् इति अस्ति इति चेत् पुनः एकसूत्रमस्ति नमां योगे अडागमस्य निषेधः सामान्यतया भूतकाले पूर्वम् अकारः भवति लङ् लकारे च लुङ् लकारे च अभवत् अभूत् इति किन्तु मायु माङ् इति अनेन योगे अभूत् इत्यत्र अकारस्य निषेधः अकारस्य प्रयोगः न भवति एवं मा भूत् इति बहवः श्लोकाः भगवद्गीतायाम् एवं सन्ति कर्मण्येवाधिकारस्ते मा फलेषु कदाचन अत्रापि द्वितीयपङ्क्तौ किमस्ति फलहेतुर्भूः मा कर्म फलहेतुः अभूः इति तत्र प्रयोगः मा ते सङ्गोस्तु अकर्मणि ते सङ्गः अकर्मणि मास्तु मास्तु इति अर्थे एव पूर्वतनपङ्क्तौ अपि मा कर्मफलहेतुः अभूः मा योगे अभूः इति पदं तत्र अस्ति आशिरर्थे लोटर्थे न तु भूतकालार्थे एवं बहवः श्लोकाः भगवद्गीतायां दृश्यन्ते एवम् अत्र समस्तपदानि तु वयं पश्यामः अग्रे अपि नोट्स् मध्ये तथापि संक्षेपेण द्रक्ष्यामः आश्रमपीडा आश्रमस्य पीडा आश्रमपीडा परिमेयपुरःसरौ परिमेयाः पुरःसराः ययोः पुरःसराः नाम अनुचराः परिमेयाः परिमिताः परिमातुं योग्याः परिमेयाः इत्युक्ते गणयितुं योग्याः विशालसैन्यदलं भवति चेत् गणना दुष्करा भवति कठिना भवति किन्तु अत्र अङ्गुलीगणनीयाः इति अर्थः परिमेयाः पुरःसराः ययोः दिलीपसुदक्षिणयोः तौ परिमेयपुरःसरौ अनुभावविशेषात् इति अस्ति अनुभावस्य विशेषः अनुभावविशेषः तस्मात् अनुभावविशेषात् सेनापरिवृतौ परितः वृतौ परिवृतौ सेनया परिवृतौ सेनापरिवृतौ इति भवति माभूत् इत्यस्य व्याकरणविशेषः पूर्वमेव उक्तः अस्ति अस्तु इदानीं श्लोकं पठामः मिलित्वा मा भूदाश्रमपीडेति परिमेयपुरःसरौ अनुभावविशेषात्तु सेना परिवृताविव अग्रिमं श्लोकं पश्यामः कुत्रचित् संशयः अस्ति चेत् टिप्पणीं लिखित्वा स्थापयन्तु अन्ते शक्यते चेत् तेषां सन्देहनिवारणं कुर्मः इदानीं कविः वर्णयति कैश्चित् अनुचरैः गच्छन्तौ दिलीपसुदक्षिणौ सुदक्षिणादिलीपौ मार्गे किं किं पश्यन्ति तयोः अनुभवः कः इति सुखस्पर्शी वायु वाति इति वदति कविः अग्रिमश्लोके सुखस्पर्शी वायुः वाति शीतलवायुः वाति मन्दवायुः वाति अनेन तयोः मार्गश्रमः एव ताभ्यां न अनुभूयते यथा तथा वायुः अपि तयोः तौ सेवते इति अर्थः सेव्यमानौ सुखस्पर्शैः शालनिर्यासगन्धिभिः पुष्परेणोत्किरैर्वातैः आधूतवनराजिभिः साधुतवलराजिभिः अत्र पदच्छेदः सेव्यमानौ सुखस्पर्शैः शालनिर्यासगन्धिभिः पुष्परेणूत्किरैः वातैः आधूतवनराजिभिः इति पदच्छेदः। अत्रापि पूर्ववत् किं करणीयम्? अध्याहारः करणीयः। अध्याहारः कयोः पदयोः? तौ दम्पती जग्मतुः, दम्पती जग्मतुः इत्यस्य अध्याहारः। इदानीं पश्यामः, अन्वयक्रमं पश्यामः। तौ जग्मतुः, कथं भूतौ तौ? सेव्यमानौ जग्मतुः, सेव्यमानौ गच्छतः, सेव्यते तत् पतिपत्नी उभौ अपि तयोः सेवा भवति। सेवते इति क्रिया पदमस्ति किल, सेवते, बहवः अर्थाः भवन्ति। एकं भक्तः भगवन्तं सेवते, शिष्यः गुरुं सेवते इति अर्थे भवति। अनन्तरं समुद्रतीरे शीतलवायुं सेवन्ते जनाः, भोजनं सेवते इति अत्रापि सेवते। अनन्तरम् आश्रयते इत्यर्थे अपि सेवते इति भवति। क्रियमाणौ, अनुभूयमानौ, अनुभवं कुर्वन्तौ, तौ जग्मतुः इति अर्थे अस्ति। तौ सेव्यमानौ स्तः इत्युक्ते वायुसेवनं प्राप्नुवन्तौ, तौ गच्छतः इति अर्थः। वायुसेव सेवा सेवनं भवति किल, कैः सेव्यमानौ तौ जग्मतुः? एकपदमस्ति अत्र श्लोके, वातैः, पवनैः, पवनैः सेव्यमानौ तौ जग्मतुः इति। अन्यपि पदानि वातैः इति पदस्य विशेषणपदानि भवन्ति। कथं ज्ञायते? सर्वाण्यपि पदानि पश्यतु, तृतीया विभक्तौ बहुवचने, सुखस्पर्शैः वातैः, शालनिर्यासगन्धिभिः वातैः, पुष्परेणोत्किरैः वातैः, आधूतवनराजिभिः वातैः इति चत्वारि विशेषणपदानि वातैः इत्यस्य पदस्य। कीदृशैः वातैः? सुखस्पर्शैः वातैः। पुनः कीदृशैः वातैः? शालनिर्यासगन्धिभिः वातैः। पुनः कीदृशैः वातैः? पुष्परेणोत्किरैः वातैः। पुनः कीदृशैः वातैः? आधूतवनराजिभिः वातैः इति। पश्यतु, एकैकं पश्यामः। वस्तुतः वायुना सेव्यमानौ तौ गच्छतः, वायुसेवनं कुर्वन्तौ इति एव। किन्तु कविः कालिदासः चमत्कृतिम् उत्पादयति किल स्व शब्दप्रयोगैः, अतः सः किं वदति? सुखस्पर्शैः वातैः। वाताः कीदृशाः सन्ति पवनाः इत्युक्ते, स्पर्शेन्द्रियाय त्वचे सुखं जनयन्ति, सुखकरं भवति। सुखस्पर्शैः वातैः, कदा वायुः प्रयाणसमये सुखस्पर्शी भवति? यदा शीतलः भवति। उष्णकाले प्रयाणसमये शीतलवायुः वाति चेत् बहु आनन्दः भवति किल, तथा सुखस्पर्शैः, शीतलत्वात् प्रियकरैः वातैः इति अर्थः। तादृशाः वायवः, तैः वातैः सेव्यमानौ तौ जग्मतुः इति प्रति वाक्यम् अस्माभिः। पुनः कीदृशैः वातैः इत्युक्ते शालनिर्यासगन्धिभिः वातैः। शालवृक्षः नाम सर्जवृक्षः, शालप्रांशुरिवा इति आदौ अपि दृष्टवन्तः। शालनिर्यासगन्धिभिः, सर्जवृक्षात् कश्चन निस्यन्दः भवति, एकस्निग्धवस्तु ततः स्रवति, निस्यन्दते। सहज निस्यन्दः कथं भवति इत्युक्ते सुगन्धमयः भवति, सुरभिमान् भवति, तैः गन्धैः वातः अपि सुरभिमान् भवति, गन्धयुक्तः भवति, अतः शालनिर्यासगन्धिभिः वातैः, शालनिर्यास शालवृक्षतः निस्यन्दमानद्रव्येण सुरभिमान् सञ्जातः यः वातः तैः वातैः सेव्यमानौ तौ दम्पती जग्मतुः। पुनः ते वाताः कीदृशाः इत्युक्ते पुष्परेणुभिः उत्कीर्णाः वाताः, पुष्पाणां रेणवः, पुष्पधूलिः, पोलन् इति वदन्ति किल, पुष्पकुसुमधूलिभिः विकीर्णः स च वायुः, वायौ पुष्पधूलयः इतस्ततः भ्रमन्ति, तैः तादृशैः वातैः सेव्यमानौ तौ सुदक्षिणादिलीपौ जग्मतुः। अस्तु, पुनः कीदृशैः इत्युक्ते आधूतवनराजिभिः वातैः, वाति वनमार्गे वृक्षाणाम् आवलिः भवति, वृक्षाणां या आवलिः अस्ति अथवा दीर्घमार्गः भवति तत् वनराजिः इति उच्यते, वनपङ्क्तिः, सा च पङ्क्तिः कम्पमाना दृश्यते, अतः ईषत् कम्पिताः वनपङ्क्तयः यैः वातैः तादृशैः वातैः तौ सेव्यमानौ जग्मतुः। सेव्यमानौ नाम परिचर्यमाणौ इति, एतस्य सरलमर्थं पश्यामः। गुर्वाश्रमं प्रति किमर्थं गच्छतः द्वौ? द्वौ अपि पुत्रनिमित्तं गच्छतः, पुत्रनिमित्तं गच्छन्तौ दम्पती सन्निमित्तसूचकेन शीतलमन्दमारुतेन सेव्यमानौ भवतः इति कवेः तात्पर्यम्। कविः तद् शुभनिमित्तकम् इति न वदति, किन्तु तदेव वक्तुमिच्छति, विवक्षा अस्ति कवेः। पुराणेषु बहुत्र यत्र यत्र महताम् अथवा भगवतः जन्म, देव्याः जन्म वर्णनप्रसङ्गः भवति, सर्वत्र एतादृशवर्णनं भागवते च कुमारसम्भवे च दृश्यते, जन्मनः समये वा, जन्मनः समये वा अथवा विवाहसमये वा शुभकार्यसमये एतादृशवातावरणं भवति चेत् तद् शुभसूचकम् इति। तयोः दम्पत्योः आश्रमगमनमपि यदा भवति तदा शुभनिमित्तानि भवन्ति। विपरीतं वयं शृणुमः भगवद्गीतायां, विपरीतानि च पश्यामि निमित्तानि इति अर्जुनः वदति, निमित्तानि केशव इति, अतः एव अहं युद्धं कर्तुं न इच्छा नेच्छामि इति अर्जुनः वदति। अत्र शुभनिमित्तानि भवन्ति, कथम् इत्युक्ते मन्दमारुतः वाति, स च मारुतः सुगन्धिमान् अस्ति, शीतलः अस्ति, स्प्रष्टुं सुखकरः अस्ति, एवं विधम् एवं विधः सः वायुः वाति, तद् शुभनिमित्तसूचकः अस्ति। अस्तु, पुनः स च मारुतः वायुः सर्जवृक्षात् स्रवता निस्यन्देन, निस्यन्दः नाम गम् इति निर्यासवस्तु, निस्यन्देन सुरभिमान् आसीत्। वायुः पुष्पधूलिः इतस्ततः विकिरन् वायुः वाति, पुष्पधूलयः सन्ति ताः इतस्ततः प्रक्षिपन् वाति। पुनः स च वायुः वृक्षाणाम् आवल्यः याः सन्ति ताः कम्पयन् अपि वाति, अतः सः पवनः त्वचे सुखावहः आसीत् इति अर्थः। पुनः शुभसूचकः आसीत् इति अपि तात्पर्यं भवति। शालवृक्षस्य इतरनामानि सन्ति, सर्जवृक्षः, अश्वकर्णः, इत्यादि नामानि दृश्यन्ते। एकवारं श्लोकं पश्यामः। सेव्यमानौ सुखस्पर्शैः शालनिर्यासगन्धिभिः पुष्परेणोत्किरैर्वातैः आधूतवनराजिभिः। अत्र समस्तपदानि कानि? सुखस्पर्शैः। सुखः स्पर्शः येषां, ते सुखस्पर्शाः। येषां वायूनां स्पर्शः सुखः, सुखः स्पर्शः येषां, ते सुखस्पर्शाः। तैः सुखस्पर्शैः वातैः। शालनिर्यासगन्धिभिः, शालेभ्यः निर्यासाः, शालवृक्षेभ्यः निर्यासाः भवन्ति। निर्यासः नाम गम्, लाक् इति वदन्ति किल, किं वदन्ति वृक्षाणाम् आङ्ग्लभाषया? गम् लैक् सब्स्टेन्स् इति। शालनिर्यासाः, शालेभ्यः निर्यासाः, शालनिर्यासाः, शालनिर्यासानां गन्धः, शालनिर्यासगन्धः, शालनिर्यासगन्धः अस्ति येषु, ते शालनिर्यासगन्धिनः वाताः। वातस्य एव विशेषणं किल, अतः शालनिर्यासगन्धिनः वाताः। तैः शालनिर्यासगन्धिभिः वातैः। पुनः कीदृशैः वातैः? पुष्परेणोत्किरैः वातैः। उत्किरन्ति इत्युक्ते उत्क्षिपन्ति, उपरि तन उपरि ऊर्ध्वदिशि क्षिपन्ति इति उत्किरन्ति। उत्किरन्ति इति उत्किराः पुष्पाणां रेणवः, पुष्परेणवः पुष्परेणूनाम् उत्किराः, उत्क्षेपः उत्किराः। तैः पुष्परेणोत्किरैः। आधूतवनराजिभिः, वनानां राजयः, वनराजयः आधूताः। आधूताः नाम कम्पिताः। आधूताः वनराजयः यैः वातैः, ते आधूतवनराजयः। तैः आधूतवनराजिभिः इति समस्तपदानि विस्तरेण टिप्पण्याम् उल्लिख्यन्ते। यत् समासाः तदा वयं सम्यक् पठितुं शक्नुमः। इदानीम् अग्रिमं श्लोकं पश्यामः। पूर्वतनश्लोकं श्लोके किमुक्तं? दम्पतीभ्यां यदा गमनं भवति तदा स्पर्शसुखम् अनुभवतः। स्पर्शसुखं केन इन्द्रियेण भवति? त्वचा भवति, त्वक् एव स्पर्श अनुभवं ददाति। इदानीं श्रवणसुखकरं किञ्चित् तत्र भवति। किं भवति इत्युक्ते मयूराणां केकारवः भवति। मयूराः उपरि पश्यन्तः सन्ति। किं तदा वृष्टिकालः अथवा कृष्णमेघाः सन्ति आकाशे? न, तथा नास्ति। अत्र कविः वर्णयति रथस्य ध्वनिं श्रुत्वा मयूराः सम्भ्रान्ताः। मयूराः चिन्तयन्ति मेघाः गर्जन्तः सन्ति, अतः सर्वे अपि मयूराः, केचन तत्र मयूराः ऊर्ध्वमुखाः सन्तः, उपरि मुखं कुर्वन्तः आकाशस्य दिशि पश्यन्तः, मेघं पश्यन्तः चिन्तयन्ति इदानीं वृष्टिः सम्भवेत् इति। अतः तादृशाः मयूराः यदा प्रसन्नाः भवन्ति, ऊर्ध्वमुखाः मेघं पश्यन्तः किं कुर्वन्ति? उच्चैः रवं शब्दं कुर्वन्ति। स च रवः मयूरस्य केका इति उच्यते। अतः केकाः कुर्वन्तः मयूरः दृश्यन्ते, तेषां केका श्रूयते दम्पतीभ्याम् इति अत्र तात्पर्यं तस्यैव अर्थं वयं विस्तरेण पश्यामः. प्रथमं श्लोकं पठामः. मनोभिरामा शृण्वन्तौ
रथनेमिस्वनोन्मुखैः
षड्जसंवादिनीः केका
द्विधा भिन्ना शिखण्डिभिः.
इदानीं पूर्वं सेव्यमानौ जग्मतुः वायुः वायुसेवनं कुर्वन्तौ जग्मतुः इति अस्ति. अत्र शृण्वन्तौ तौ जग्मतुः श्रवणं कुर्वन्तौ इति अस्ति. पश्यामः तौ जग्मतुः दम्पती किं कुर्वन्तौ जग्मतुः काः न किं कुर्वन्तौ जग्मतुः तत्र कश्चन दोषः अस्ति. किं कुर्वन्तौ जग्मतुः शृण्वन्तौ जग्मतुः. अग्रे प्रश्नः भवति काः शृण्वन्तौ इति भवति. क्षम्यतां तत्र एकं पदं त्यक्तमस्ति. किं कुर्वन्तौ जग्मतुः इति प्रथमं आकाङ्क्षाक्रमे प्रश्नः स्यात्. शृण्वन्तौ जग्मतुः दम्पती तौ दम्पती काः शृण्वन्तौ जग्मतुः इति पृष्टे सति उत्तरं भवति केकाः शृण्वन्तौ जग्मतुः. इदानीं केकाः इति पदस्यैव यथा वातैः इति पदस्य बहवः विशेषणशब्दाः आसन् तथैव अत्र केकाः इति पदस्य विशेषणानि सन्ति. किं किमस्ति पश्यामः. कीदृशीः ताः केकाः शृण्वन्तौ जग्मतुः. अत्र सर्वं द्वितीया विभक्तौ अतः कीदृशीः नदीशब्दवत् केकाः. द्विधा भिन्नाः केकाः. द्विधा भिन्नाः केकाः इत्युक्ते शब्दः द्विधा भिद्यते. सङ्गीतज्ञाः सम्यक् जानन्ति अहं तथा विवरीतुं न शक्नोमि किन्तु यावत् श्लोकात् अवगतं वदामि. कैः द्विधा भिन्नाः. शिखण्डिभिः. शिखण्डिनः के मयूराः. शिखण्डः अस्य अस्ति इति शिखण्डी भवति मयूरः. शिखण्डिभिः अग्रे विस्तरेण एतस्य अर्थं पश्यामः. द्विधा भिन्नाः इत्यस्य कीदृशैः शिखण्डिभिः. रथनेमिस्वनोन्मुखैः शिखण्डिभिः. रथनेमि इत्युक्ते रथचक्रस्य प्रान्तः. रथचक्रस्य रिम् इति वदन्ति किल रिम् आफ् दि वील्. रथनेमिस्वनः. रथनेमि शब्दं कुर्वन्तौ गच्छतः कुर्वत्यौ गच्छतः तथा रथनेमि तस्य स्वनः ध्वनिः भवति.
वदतु भगिनी, श्रूयते इदानीं.
हरि ओम्.
हरि ओम् भगिनी, श्रूयते, वदतु.
अस्तु हा षड्जसदृशैः एकाः भवन्ति ताः च मनोभिरामाः च सन्ति मनोभिरामाः चित्तं रञ्जयन्ति इति अस्ति एतस्य कर्तव्यमस्ति पश्यामः अन्वयः भवति स्वनोन्मुखैः शिखण्डिभिः भिन्नाः षड्जसंवाद मनोभिरामाः केकाः शृण्वन्तौ तौ जग्मतुः इति भवति अन्वयप्रतिपदार्थं रथनेमि स्वनोन्मुखैः रथचक्रप्रान्ताभ्याम् उत्पन्न मेघध्वनिं मत्वा मयूराः ऊर्ध्वम् तादृशैः मयूरैः शिखण्डिभिः नाम मयूरैः रथनेमि स्वनोन्मुखैः इति पदं शिखण्डिभिः इति पदस्य विशेषणं भवति रथनेमि ध्वनिना ध्वनि ऊर्ध्वमुखाः जाताः ये मयूराः तादृशैः मयू किं भवति इत्युक्ते शब्दः क्रियते द्विधा भिन्नाः संवादिनीः मनोरमा मनोभिरामाः केकाः शिखण्डिभिः उत्पाद्यते कथमस्ति इत्युक्ते षड्जसदृश्यः षड्जसदृशाः ध्वनयः षड्जसदृशी अस्ति द्विधा भिन्नाः इत्युक्ते षड्ज एव शुद्धविकृतप्रकारकाः भवन्ति किल षड्जसंवादिनीः षड्जसदृशी षड्भ्यः स्थानेभ्यः जातः यः ध्वनिः अस्ति अहं दर्शयामि मनोभिरामरञ्जकाः केकाः मयूरवाण्यः श्रूयन्ते तद् श्रुत्वा शृण्वन्तौ आकर्णयन्तौ तौ दम्पती जग्मतु विवरणम् अहं वदामि यः केऽपि ये केऽपि अत्र सङ्गीतं सम्यक् जानन्ति षड्जाधिकविषये कुर्वन्तु रथचक्रप्रान्ताभ्याम् उत्थितं ध्वनिम् आकर्ण्य मृदुस्वनं मन्यन्ते मयूराः एते एषः मेघस्य गर्जनम् एतत् इति ये मयूराः चिन्तयन्ति किल अतः सम्भ्रान्ताः ऊर्ध्वमुखाः ते मयूराः हर्षेण केकारवं कुर्वन्ति केकाः षड्जेन तुल्याः भवन्ति षड्जं मयूरः वदति इति वाक्यमस्ति तां श्रवणसुखावहां वाणीम् आकर्णयन्तौ तौ दम्पती प्रयातौ जग्मतुः इति भावः अत्र षड्जः इति षड्ज इति पदं कथं निष्पन्नम् इत्युक्ते षड्भ्यः स्थानेभ्यः जातः इति नासाकण्ठम् उरस्तालु जिह्वादन्ताश्च संस्पृशन् षड्भ्यः सञ्जायते यस्मात् तस्मात् षड्ज इति स्मृतः नासभागः नासाभागः कण्ठभागः उरः तालु जिह्वा दन्ताः च एतान् भागान् संस्पृशन् ध्वनिः षड्भ्यः सञ्जायते यस्मात् तस्मात् षड्जः इति स्मृतः इति सङ्गीते इतोपि अस्मिन् विषये ये केऽपि जानन्ति अथवा अद्य अथवा अग्रिमवर्गे वक्तुमर्हन्ति कृपया यतः अहं तावत् सङ्गीतं न जानामि अतः इतोपि अधिकं विवरीतुम् अशक्ता अस्मि ये केऽपि जानन्ति कृपया वदन्तु अग्रिमवर्गे अपि चिंता नास्ति। अस्तु, इदानीं समस्तपदानि कानि पश्यामः। रथनेमि स्वनोन्मुखैः, रथस्य नेमी, रथनेमी, रथनेम्योः स्वनः, नेमी इति स्त्रीलिङ्गशब्दः, रथनेम्योः स्वनः, रथनेमि स्वनः, इति भवति। रथनेमि स्वनेन उन्मुखाः, ऊर्ध्वमुखाः, उन्मुखाः रथनेमि स्वनोन्मुखाः, तैः रथनेमि स्वनोन्मुखैः मयूरैः इति अर्थः। षड्जः षड्भ्यः जातः षड्जः षड्जेन संवादिन्यः, संवादिन्यः नाम सदृश्यः, षड्ज सदृश्यः, ताः सज्जसंवादिनीः, द्वितीयाविभक्तिशब्दः। के काः, के कायन्ति, के इत्युक्ते मूर्ध्नि, यः शिरसः भागः अस्ति, मूर्ध्नि ध्वनन्ति, कायन्ते इत्युक्ते ध्वनन्ति, के काः इति अर्थः। अभिरामः नाम सुन्दरं, मनसः, मनसे अभिरामाः, मनोभिरामाः, मन चित्तरञ्जकाः इति अर्थः। अत्र पूर्वतनश्लोके अपि वयं दृष्टवन्तः शुभनिमित्तकानि कानि इति, सुखस्पर्शवायुः अस्ति, इदानीं सुन्दरध्वनिः श्रूयते। तथैव कुमारसम्भवे कविवरः कालिदासः पार्वतीजननप्रसङ्गे किं वदति इति पश्यामः। अत्र श्लोकम्, प्रसन्नदिक्पांसु विविक्तवातं शङ्खस्वनानन्तरपुष्पवृष्टिः शरीरिणां स्थावरजङ्गमानां जन्मदिनं बभूव इति वदति। तद्दिनं कीदृशमासीत्? यस्मिन् दिने देव्याः पार्वत्याः जननम् अभवत् तत् दिनं कीदृशं? प्रसन्नदिक्पांसु विविक्तवातम्, तद्दिनस्य वातं, वायुः प्रसन्नं, सुखावहम्, तस्मिन् दिने दिशः प्रसन्नाः आसन्, सर्वाः अपि दिशः, पांसु विहीनः आसीत् वायुः, तादृशं दिनमासीत्। पुनः शङ्खस्वनानन्तरपुष्पवृष्टिः आसीत्, शङ्खस्वनः आसीत् ध्वनिः, अनन्तरम् आकाशे, आकाशात् पुष्पवृष्टिः जाता। शरीरिणां स्थावरजङ्गमानां तत् जन्मदिनं सुखाय बभूव, शरीरिणां सन्ति जीवप्राणिनः तेषां स्थावरजङ्गमानां सर्वेषामपि, वृक्षाणामपि, लतानामपि, तृणानामपि, अनन्तरं जङ्गमाः प्राणिनः, पशवः, पक्षिणः, मृगाः, मनुष्याः, यागांसि, जलजन्तवः, तेषां सर्वेषामपि एतत् दिनं सुखाय इति वर्णनम्। तथैव यत्र यथा शुभसूचकं चिह्नानि वर्णयति, तथैव अत्र अपि कविः सुखस्पर्शि वायुः, मयूरस्य केकाः इति सुन्दर, यत्सर्वम् इन्द्रियसुखम् अत्र ददाति तद् शुभनिमित्तकम् इत्यपि तत्र कवेः विवक्षा अस्ति। इदानीं वयम् अद्यतनतृतीयं श्लोकं पठामः। शृण्वन्तौ रथनेमिस्वनोन्मुखैः षड्जसंवादिनीः केका द्विधा भिन्ना शिखण्डिभिः। अद्य दीर्घसमस्तपदयुक्तपद श्लोकाः आसन् इति कारणेन वयं श्लोकत्रयमेव कर्तुं शक्तवन्तः। सोमवासरे पुनः अनुवर्तयामः पठनम्। अस्तु, शुभरात्रिः।